अमयं कुतो भवति चिन्वताः अयि पतत्यहं निजविचारणम् अहमयं कुतो भवति चिन्वताः अयि पतत्यहं निजविचारणम्